सर्वेभ्यो नमः स्वागतम् वयं प्रार्थनां वदामः राधा भगिनि
ॐ सहनावपदो सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधूतमस्तु मा विद्यावहै
ॐ
सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः।
धन्यवादः भगिनि। अस्तु, प्रथमतया वयं बृन्दा भगिन्याः उपस्थापनं कुर्मः।
नमस्कार भगिनी।
नमस्कार बृन्दा भगिनि। आरम्भं करोतु भगिनि।
आं भगिनि, अहं प्रथमकथा अनुवाद करोमि।
अस्तु।
नष्टः पिष्टघटः, ब्रोकन् फ्लावर् पाट्। कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म। इन् सम् टौन् लिव्ड् अ पुअर् ब्राह्मिन्। सः भिक्षाटनेन जीवनं करोति स्म। He used to make his living by taking alms. Kadachit saha pishtena purnam ekam ghatam praptavan. Someday he found a pot full of flour. Tam ghatam nagadante avalambaya tasya adha upavishya saha ekadrishtya ghatam eva pashyati sma. Hanging that pot with the help of rope, sitting below it, he was staring at the pot. एकदा रात्रौ सः चिन्तितवान्, यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत्। वन् नैट् ही थाट् इफ् देर् वास् अ फेमिन् इन् द कण्ट्री देन् इट्स् वेल्यू विल् बि 100 rupees। तदा अहम् एतत् विक्रिय तेन धनेन अजद्वयं क्रेष्यामि। देन् ऐ विल् सेल् इट् वित् देट् मनी ऐ विल् बै 2 goats। कालान्तरे तेन अजसमूहः एव भविष्यति। इन् सम् टैम् देर् विल् बी अ ग्रूप् आफ् गोट्स्। अनन्तरम् अजसमूहं विक्रिय धेनुः क्रेष्यामि। लेटर् ऐ विल् सेल् द ग्रूप् आफ् गोट्स् एण्ड् बाय् अ काव्। अनन्तरं ताः विक्रिय महिषीः, ताः विक्रिय अश्वान् च क्रेष्यामि। आफ्टर् सेलिङ्ग् देम् अ बफेलो एण्ड् आफ्टर् सेलिङ्ग् देट् ऐ विल् बाय् अ हार्स्। तान् अपि विक्रिय यथेष्टं धनं सम्पादयिष्यामि। देट् आल्सो ऐ विल् सेल् टु प्रोक्योर् एस् मच् वेल्त् एस् ऐ डिसायर्। बृहत् गृहं निर्मापयिष्यामि। ऐ विल् बिल्ड् अ ह्यूज् हौस्। तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति। देन् सम् ब्राह्मिन् विल् कम् एण्ड् गिव् मी हिस् ब्यूटिफुल् डाटर्। अनन्तरं मम पुत्रः जनिष्यति। देन् मै सन् विल् बि बोर्न्। देवशर्मा इति तस्य नामकरणं करिष्यामि। ऐ विल् नेम् हिम् देवशर्मा। यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि। वेन् ही इस् एबल् टु स्टार्ट् क्रालिङ्ग् आन् हिस् नीस् देन् ऐ विल् रीड् बुक्स् इन् द स्टेबल्। तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति। देन् देवशर्मा क्रालिङ्ग् आन् हिस् नीस् विल् बि रेडी टु कम् नियर् मी। तदा तं बालं ग्रहीतुं तस्य मातरम् आज्ञापयिष्यामि। देन् टु टेक् हिम् ऐ विल् आर्डर् हिस् मदर् टु केरि मातरम् आज्ञापयिष्यामि देन् टु टेक् हिम् ऐ विल् आर्डर् हिस् मदर् टु केरि यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि इति. When she does not listen to me, then with anger I will hit her with my feet to punish. Evam chintayan sah pradapraharam krutvan eva. Thinking like this, he struck his foot. Pishtena purnah ghatah patitah bhagnah cha. The pot full of flour fell down and broke. Anagatavatim chintam asambhavyam karuti yah. Sa eva pandurah shete deva sharma pita yatha. One who dreams of things that do not happen, who merely sleeps and imagines, his fate will be like Dev Sharma's father.
Samichina Bhagini. Vaniyam Kartripadam Kriyapadam Tat Sarvam Vadativa.
Am Bhagini, Upastavani Parishyami. नष्टः पिष्टघटः. नष्ट शब्दस्य प्रथमाविभक्तिरूपाणि. पिष्टघटः प्रथमाविभक्ति एकवचन पिष्टघट. कस्यचित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म. कस्यचित् अव्ययं नगरे नगरशब्दस्य सप्तमी विभक्ति एकवचनं. कश्चन अव्ययं दरिद्रः विशेषणं. ब्राह्मणः कर्तृपदं. वसति स्म क्रियापदं भूतकाल सूचयति. भूतकालं सूचयति. सः भिक्षाटनेन जीवनं करोति स्म.
वसति क्रियापदं, स्म इस् अव्ययम्.
Should I continue?
Yes, Bhagini.
Sah bhikshatanena jivanam karoti sma. Sah kartrupadam bhikshatanena bhiksha akaranta srilinga shabdasya tritaya vibhakti rupani. Jivanam karma padam dvitiya vibhakti. Karoti kriya padam भूतकाल सूचयति स्म अव्ययम्. कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान्. कदाचित् अव्ययं सः कर्तृपदं. पिष्टेन पिष्टशब्दस्य तृतीया विभक्तिरूपाणि एकवचनं. पूर्णं विशेषणं. घटं कर्मपदं. प्राप्तवान् क्रियापदं तव तु प्रत्ययः. कम घटम नागत
भगिनी. एकम अपि एडजेक्टिव राइट.
आम
विशेषण.
आम एकम अपि विशेषणम.
तम घटम नागदन्ते अवलंब्य तस्य अधः उपविश्य सः एकदृष्ट्या घटमेव पश्यति स्म. तम द्वितीया विभक्ति एकवचनम ऑफ सः. घटम कर्मपदम द्वितीया विभक्ति. नागदन्ते सप्तमी विभक्ति. अवलंब्य क्रियापदं ल्यप् प्रत्यय. तस्य षष्ठी विभक्ति एकवचनम् असः. अधः अव्ययम्. उपविश्य क्रियापदं ल्यप् प्रत्यय. सः कर्तृपदम्. एकदृष्ट्या क्रियापदं ल्यप् प्रत्यय. ऐ एम नॉट श्योर अबाउट दिस वन भगिनी. द एकदृष्ट्या I think it is kriya padam, but I don't know whether it is the lap pratyaya or samadho.
It's samadhar bhagini. But okay, just say
kriya padam. Ghatam karma padam eva avyayam pashyati sma kriya padam bhutakala suchayati.
Pashyati iti kriya padam sma iti?
Sma iti.
Bhagini, I have a question.
Bhagini.
What made Bhagini think it's Eka Drashtya is a Kriyapadam?
Yeah, pashyati is a kriya padam, but ekadrishtya, how is that a
kriya padam? Tritiya vibhakti, bhagini. Ekadrishti shabdasya strilinga tritiya vibhakti.
Yeah, actually I wrote it as tritiya vibhakti initially, and then when I checked it up, it came up as a kriya padam. So I was a little confused whether it was tritiya vibhakti or kriya padam. I've actually written both, but I wasn't sure.
Also, Bhagini, I think you said Bhikshatanena was strilingam, or I don't know if I misheard, but I think it's pullingam, pullingam tritiya.
Bhiksha is strilingam, I thought.
Yeah, but this is not just bhiksha, it's Bhikshatanam.
Oh, okay.
So I think Bhikshatanena is pullingam tritiya.
Okay.
I got it as Napunsakalingam.
Or Napunsakalingam, yeah, Napunsakalingam also. Bhikshatanam, yeah, Napunsakalingam,
both tritiya.
Yeah,
it's tricky because both of them are similar, right?
So the Bhikshatanam is the base word, right?
Yeah, Bhikshatanam.
Yeah. Okay. Should I continue, Bhagini?
Haan, Bhagini.
Ekada ratrav saha chintitavan. Yadi deshe durbhikshah bhavet, tarhi etasya shatarupyakanam mulyam bhavet. Ekada avyayam, ratrav saptami vibhakti ekvachanam. Saha kartripadam, chintitavan kriyapadam tavatu pratyaya. Yadi avyayam, deshe saptami vibhakti ekvachanam. दुर्भिक्षः विशेषं भवेत् क्रियापदं विधिलिङ्गं परस्मैपदी तर्हि अव्ययम् एतस्य षष्टिविभक्ति आफ् एषः शतरूप्यकाणां षष्टिविभक्ति मूल्यं कर्मपदं भवेत् क्रियापदं विधिलिङ्गं परस्मैपदी.
समीचीनम्.
तदा अहम् एतत् विक्रिय तेन धनेन अजद्वयं प्रेषयामि. तदा अव्ययम् अहं कर्तृपदम् एतत् प्रथमाविभक्ति नपुसलिङ्गम् एतत् शब्दस्य विक्रिय क्रियापदं ल्यप् प्रत्यय तेन तृतीयाविभक्ति एकवचनम् अप्सः धनेन तृतीयाविभक्ति अजद्वयं कर्मपदं प्रेषयामि क्रियापदं भविष्यकाल सूचयति.
Bhagini, this is where I said etat is also a karma padam. Because it is also dvitiya.
Bhavitum arhati.
Etat is prathama vibhakti.
It is sarvanama padam. How can it be kriya padam?
Dvitiya.
Bhagini said karma padam.
Oh. But how can it be karma padam?
Yeah, it is prathama vibhakti. It can't be, it's not dvitiya vibhakti.
Etat prathama vibhakti.
Kalantare tena ajasamuha eva bhavishyati. I'm not sure of this word also, Bhagini. Kalantare, whether it is avyayam or it's sat. Saptami vibhakti ekvachanam.
Saptami
vibhakti. Saptami vibhakti ekvachanam. Tena tritiya vibhakti ekvachanam of saha. Ajasamuha kartripadam. Eva avyayam. Bhavishyati kriyapadam. Bhavishyakalam suchyat. Anantaram ajasamuham vikriya dhenuhu preshyami. Anantaram dvitiya vibhakti. Ajasamuham karmapadam. विक्रिय क्रियापदं ल्यप् प्रत्यय धेनुः उकारान्त स्त्रीलिङ्ग द्वितीया विभक्ति बहुवचनं क्रेष्यामि क्रियापदं भविष्यकालं सूचयति.
सारि, अनन्तरम् ऐ थिङ्क् इस् अव्ययम्.
या, दट्स् व्हाट् यू वर् सेयिङ्ग्.
या, ऐ डोंट् थिङ्क् इट्स् कर्मपदम्.
आम्, एतत् अव्ययं भवति.
ओके.
So what will be the karma padam on this sentence?
Ajasamuham.
Ajasamuham.
And Denuhu.
Denuhu is Kartrupadam.
No, Kartrupadam is this guy.
Padam, yeah, Kreshyami. So aham is indicative.
Yeah, aham is Kartrupadam.
Denuhu is also Karmapadam, correct?
Yeah.
But somehow, yeah, Bhagini, it's not in, it's not Denum. So,
yeah. Denu. No, Denu is Bahuvachanam Dvitiya.
Bahuvachanam Dvitiya.
Of Ukaram, the feeling.
Bahuvachanam Dvitiya. Okay.
Vikriya and Kreshyami, both of them will be Kriyapadam, no?
Yeah. Vikriya is Lyap Pratyaya. अनन्तरं ताः विक्रिय महिषीः ताः विक्रिय अश्वान् च क्रेष्यामि अनन्तरम् अव्यय ताः द्वितीयविभक्ति बहुवचनम् आफ् ता विक्रिय क्रियापदं ल्यप् प्रत्यय महिषीः कर्मपदं द्वितीया विभक्ति बहुवचनं ताः द्वितीया विभक्ति बहुवचनम् आफ् ता विक्रिय क्रियापदं ल्यप् प्रत्यय अश्वान् कर्मपदं द्वितीया विभक्ति बहुवचनं च अव्ययं क्रेष्यामि क्रियापदं भविष्यकालं तान् अपि विक्रिय यथेष्टां धनं सम्पादयिष्यामि तान् द्वितीया विभक्ति बहुवचनम् अवसः अपि अव्ययं विक्रिय क्रियापदं ल्यप् प्रत्यय यथेष्टं विशेषणं धनं कर्मपदं सम्पादयिष्यामि क्रियापदं भविष्यकालं सूचयति बृहत् गृहं निर्मापयिष्यामि बृहत् विशेषणं गृहं कर्मपदं निर्मापयिष्यामि क्रियापदं भविष्यकालसूचयति तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति तदा अव्ययं कश्चित् अव्ययं ब्राह्मणः कर्तृपदम् आगत्य क्रियापदं ल्यप् प्रत्यय रूपवतीं विशेषणं स्व अव्ययं कन्यां कर्मपदं मह्यं चतुर्थी विभक्ति मत् शब्द दास्यति अस्मत् दास्यति क्रियापदं भविष्यकालसूचि अनन्तरं मम पुत्रः जनिष्यति अनन्तरम् अव्ययं मम षष्टिविभक्ति अस्मत् शब्दस्य पुत्रः कर्तृपदं जनिष्यते क्रियापदं भविष्यकालसूचयति आत्मनपदि देवशर्मा इति तस्य नामकरणं करिष्यामि देवशर्मा कर्तृपदम् इति अव्ययम्
अहम् इति कर्तृपदम्
अहं कर्तृपदम् आम् देवशर्मा विल् बि
जस्ट् देवशर्मा
दट्स् ओके विशेषं इति अव्ययं तस्य षष्टिविभक्ति एकवचनम् आफ् सः नामकरणं कर्मपदम् करिष्यामि क्रियापदं भविष्यकालसूचयति यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि यदा अव्ययं सः कर्तृपदं जानुभ्यां तृतीया विभक्ति द्विवचनं चलितुं क्रियापदं सुमन् प्रत्यय समर्थः विशेषणं भविष्यति क्रियापदं भविष्यकालं सूचयति तदा अव्ययम् अहं कर्तृपदम् अश्वशालायां सप्तमी विभक्ति आफ् अश्वशाला पुस्तकं कर्मपदं पठिष्यामि क्रियापदं भविष्यकालं सूचयति तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति तदा अव्ययं देवशर्मा is Dev Sharma Kartrupadam Yaha, Bhagini?
Yes.
Yeah. Janubhyam Tritiya Vibhakti Dvi Vachanam Chalan Kriyapadam Chaptaranta Patyaya Mama Shashti Vibhakti Asmat Chapta Samipam Visheshanam Agantum Kriyapadam Tumun Pratyaya Udyuktah Kriyapadam Sa Pratyaya Bhavishyati Kriyapadam Bhavishyakalam Sucheti.
Bhagini, how do you say Chaptaranta Padam here?
Chalan. The Chalan Shabda, right?
Chalan.
Sorry, I forgot Chaptaranta Padam. What is that?
Patan.
When two actions, you do it at once.
Okay. Chalan and Agan. No.
Agantum.
Agantum. Okay.
I thought it was just a Sakaranta Pullingam. Chalan. Like, okay, maybe I'm wrong. Maybe it's because of an action. No, it's a verb. Okay.
It's a verb, yeah.
How do we distinguish? Two things are happening, that's why it's Chaptaranta. How do we know?
So actually, if you break up the sentences, Tada Deva Sharma Janubhyam Chalant can become one sentence, then Mama Samipam Agantam Udyaptah Bhavishyati is like a second sentence. So there are two actions happening.
Tada Deva Sharma Janubhyam Chalati Mama Samipam Agantam Udyaptah Bhavishyati. Two of them.
So my question is how to distinguish. So two actions are happening, that's why it's Chaptaranta Padam.
Oh.
Sadatam Balam Grahitum Sasya Mataram Agnapaishyami Tada Avyayam Tam Dvitiya Vibhakti Ekvachanam of Saha Balam Karma Padam Grahitum Kriya Padam Tumun Pratyaya Tasya Shashti Vibhakti of Saha Mataram Karmapadam Agnapaishyami Kriyapadam Bhavishyakalam Suchayati.
Bhagini, Agnapaishyami is one word or it's a sandhi here?
Sandhi iti chintayami.
Yeah, because dhatu, which will be the dhatu here?
Na janami bhagini.
I think it's a sandhi because there are two words joining. Yada sam mam vachanam na shroshyati tada aham kopena pada praharena tam dandayeshyami iti. Yada avyayam sa kartripadam mama shashti vibhakti Asmat Shabda Vachanam Karmapadam Na Avyayam Shroshyati Kriyapadam Bhavishyakala Suchyati Tada Avyayam Aham Kartripadam Kopena Tritiya Vibhakti Ekvachanam Pada Praharena. So Pada is Visheshyam, Praharena Tritiya Vibhakti Ekvachanam Tam Dvitiya Vibhakti of Sa Dandayishyami Kriyapadam Bhavishyakalam Suche. Evam Chintayan Saha Pada Praharam Kritavan Eva. Iti is Avyayam. Sorry, in the previous sentence, Iti is Avyayam. Evam Avyayam Chintayan Kriyapadam Chaptaranta Pratyaya Saha Kartrupadam Pada Praharam Karmapadam Kritavan Kriyapadam Tavatu Pratyaya Eva Avyayam. Pishtena Purnaha Ghataha Patitaha Bhagnaha Cha Pishtena Tritiya Vibhakti Ekvachanam Purnaha Visheshanam Ghataha Kartrupadam Patitaha Kriyapadam Ta Pratyaya Bhagnaha Kriyapadam Ta Pratyaya Cha Avyayam.
Have you done the Ta Pratyaya?
We have just, yeah, arabdha, and
those are like the... Yeah, we just learned it because we got it in the kathas, that's all.
Actually, I just recognized because of that. Because of arabdha and shabd. Anagatavatim chintam asambhavyam karoti yaha. Anagatavatim visheshanam chintam kriyapadam kriyapadam asambhavyam
chintam iti karma padam.
Chintam is karma padam.
Anagatavatim api asambhavyam yaha anagatavatim asambhavyam chintam karoti. You can reorganize that. Yaha anagatavatim asambhavyam chintam karoti. Tatra yaha iti kartripadam.
Yaha is kartripadam. Yeah,
karoti is kriyapadam.
Kriyapadam.
Karoti chintam karoti. Chintam will be karma padam. Anagatavatim and asambhavyam visheshanam bhavati.
Visheshyam or visheshanam bhavati. Anagatavatim is visheshyam bhavati.
No. Visheshanam.
Visheshanam, yeah. Visheshanam.
Chintam visheshyam bhavati.
And asambhavyam? Asambhavyam.
Visheshanam.
Visheshanam.
Sayeva panduraha shete deva sharma pita yata.
Yatha is avyayam. Eva avyayam sa kartripadam panduraha kriyapadam ta pratyaya shete
no panduraha kriyapadam
visheshanam visheshanam sorry visheshanam shete kriyapadam and deva sharma pita is also visheshyam yatha avyayam.
Samichin.
What does panduraha mean?
White.
White.
There's actually two ways to understand this. Like Brindavagni said, one who dreams of things that do not happen, who merely sleeps and imagines his fate will be like Deva Sharma's father. You can say that. Or one who dreams of things that do not happen. And then second line would be... when he kicks the pot full of flour, right, and it falls down. So he is sitting under the pot, right, so the flour falls on him and he becomes white.
White, yeah. Actually, I was trying to do the literal translation word by word and I just couldn't form the sentence, couldn't understand what the moral was because the last sentence was sounding very funny. Covered with...
Asa prashna ha santi va?
No, I start first with comment. Awesome, awesome job, Bhagni. How did you start,
Bhagni?
This is
thanks
to Radha, Bhagni and Nagendra Mohadev. Because after seeing what they did, my job became much easier.
Okay.
And of course,
this is the recording.
Sheila Bhagni has 2 weeks from now. I think.
Kadambari Bhagini also helped a lot. So, dhanyavad Bhagini.
Kadambari Bhagini, thanks a lot. Actually, these exercises are really helping us.
Yes, very much. So many concepts are getting cleared, actually.
Yeah. Iranim, Sheila Bhagini aha in 2 weeks.
My turn is next.
अस्तु अन्य प्रश्नाः सन्ति वा अस्तु दृश्यते वा
न
अस्तु एकनिमिषः इदानीं अस्तु चित्रा भगिनी भवती पठतु.
नैव ओके अहं सर्वस्य सर्वस्य
अत्र षष्ठी विभक्तिः कुर्मः. अस्तु अत्र पठतु.
कृष्णः बलरामः कृष्णस्य भ्राता बलरामः गान्धारी धृतराष्ट्रः गान्धार्याः पतिः धृतराष्ट्रः सुभद्रा अभिमन्यु सुभद्रायाः पुत्रः अभिमन्यु महाभारतं व्यासः महाभारतस्य कर्ता व्यासः.
समीचीनम् अस्तु इदानीम् अत्र नीना भगिनी भवती पठतु. अत्र
अर्जुनस्य गुरुः द्रोणः देशस्य नाम भारतम् अर्जुनस्य आयुधं गाण्डीवं दुःशालायाः पतिः जयद्रथः कौरवसेनायाः नायकः भीष्मः.
समीचीनम् इदानीं प्रिया भगिनी
नद्याः नाम गङ्गा कादम्बर्याः रचयिता बाणभट्टः पुस्तकस्य नाम गीतासोपानम् रामायणस्य कर्ता वाल्मीकिः नगरस्य नाम इन्द्रप्रस्थम्.
समीचीनम् अस्तु अत्र अर्जुनस्य गुरुः द्रोणः इति अस्ति. शीला भगिनी अत्र कुत्र षष्टिविभक्तिः अस्ति?
अर्जुनस्य
प्रथमाविभक्तिः एकवचनं किम्?
अर्जुनः.
देशस्य नाम भारतं षष्ठी कुत्र अस्ति?
देशस्य देशः प्रातिपदिकम् ऐ मीन् प्रथमाविभक्ति.
अर्जुनस्य आयुधं गाण्डीवम्
अर्जुनस्य अर्जुनः इस् प्रथमाविभक्ति.
दुःशलायाः पतिः जयद्रथः कौरवसेनायाः नायकः भीष्मः. तत्र
कौरवसेनायाः स्त्रीलिङ्ग.
समीचीनम् इदानीं राधा भगिनी नद्याः नाम गङ्गा षष्ठी कुत्र अस्ति?
नद्याः नदी प्रथमविध विभक्ति.
कादम्बर्याः रचिता बाणभट्टः तत्र
कादम्बर्याः षष्ठी विभक्ति कादम्बरी प्रथमं.
पुस्तकस्य नाम
कादम्बरी इस् अ वर्ड् आर् बुक्
novel it
is the novel yeah. Not flower
kadambari is also a flower
also a flower
pustakasya shashti vibhakti pustakam is the prathama vibhakti ramayanasya shashti vibhakti ramayanam इष्टप्रथमविभक्ति नगरस्य षष्ठीविभक्ति नगरम्
इष्टप्रथमविभक्ति. रामायणस्य
रामायणस्य रामायणं
नगरस्य
नगरं
समीचीनम् अस्तु. अत्र प्रश्नाः सन्ति वा? अस्तु, अत्र रूपाणि पठामः. कृष्णः अकारान्तपुल्लिङ्गः, तत् कृष्णस्य इति भवति. तत्र वृक्षः अस्ति चेत् वृक्षस्य, वृक्षयोः, वृक्षाणाम् इति भवति. इदानीं गीता आकारान्तस्त्रीलिङ्गः, गीतायाः, सेना सेनायाः, सेनयोः, सेनानां. वाणी वाण्याः इति भवति, ईकारान्तस्त्रीलिङ्गः, नारी नार्याः, नार्योः, नारीणाम्. अकारान्तनपुंसकलिङ्गे चक्रं चक्रस्य इति भवति, ज्ञानं ज्ञानस्य, ज्ञानयोः, ज्ञानानाम्. अस्तु, अत्र देवः इति भवति चेत् किं भवति चित्रा भगिनी?
देवः देवस्य, देवस्य देवयोः, देवानां.
अस्तु, अग्रजः
अग्रजः अग्रजा अग्रजः विल् बि अग्रजस्य, अग्रजयो, अग्रजानां.
कठोरः
कठोरः कठोरः कठोरा
कठोरस्य
कठोरस्य कठोरयो कठोरयोः कठोरानाम्.
काकः
काकस्य काकयोः काकानाम्.
उपचारिका
उपचारिका विल् बि आकारान्तस्त्रीलिङ्ग, सो उपचारिकायाः, उपचारिकयोः, उपचारिकयोः, उपचारिकानाम्.
अस्तु, अत्र अभ्यासं कुर्मः, परन्तु प्रथमतया अत्र अस्तु अत्र अकारान्तपुल्लिङ्गः, आकारान्तस्त्रीलिङ्गः, ईकारान्तस्त्रीलिङ्गः, अकारान्तनपुंसकलिङ्गस्य रूपाणि दत्तमस्ति. किन्तु अभ्यासे अत्र उकारान्तपुल्लिङ्गः तदपि आगच्छति, तत् पठामः प्रथमतया. अस्तु, अस्तु, अत्र नीना भगिनी भवती पठतु.
अकारान्तः
पुल्लिङ्गः,
पुल्लिङ्गरामशब्दः, रामस्य, रामयोः, रामाणाम्. इकारान्तः पुल्लिङ्गमुनिशब्दः, मुनेः, मुनयोः, मुनीनाम्. उकारान्तः पुल्लिङ्गगुरुशब्दः, गुरोः, गुर्वोः, गुरूणाम्. ऋकारान्तः पुल्लिङ्गं पितृशब्दः, पितुः, पित्रोः, पितॄणाम्. ऋकारान्तः पुल्लिङ्गं कर्तृशब्दः, कर्तृः, कर्त्रोः, कर्तॄणाम्.
अस्तु, अत्र ऊरुः इति अस्ति चेत् ऊरुः
ऊरोः उर्वोः ऊरूणाम्
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 कृपालुः
कृपालुः ऊकारान्त कृपालोः उकारान्त अस्ति च अस्ति किम्
कृपालुः उकारान्त पुल्लिङ्गः
ओके सो कृपालोः कृपालवोः कृपालूनाम्
आम् अस्तु जा माता ऋकारान्त पुल्लिङ्गः
जा माता
इत्युक्ते सनिन्ला
या जा माताः जा माताः
जामातुः
जामातुः जामात्रोः
जामात्रोः
जामात्रोः जामातॄणां
जामातॄणां
जामातॄणाम्
अस्तु प्रिया भगिनी इदानीं स्त्रीलिङ्गस्य रूपाणि पठतु
भगिनि आकारान्तस्त्रीलिङ्गलताशब्दः लतायाः लतायोः लतानां लतयोः लतानाम् इकारान्तस्त्रीलिङ्गमतिशब्दः मतेः मत्याः मत्योः मतीनां मतीनाम् ईकारान्तस्त्रीलिङ्गनदीशब्दः नद्याः नद्योः नदीनाम् उकारान्तस्त्रीलिङ्गधेनुशब्दः धेनोः धेन्वाः धेन्वोः धेनूनां
समीचीनं शिक्षिका इति भवति चेत् आकारान्तस्त्रीलिङ्गः
शिक्षिका शिक्षिकायाः शिक्षिकायोः शिक्षिकानां
समीचीनम्
भगिनि
आम्
द्विवचनं भगिनि शिक्षिकयोः शिक्षिकायोः
शिक्षिकयोः
शिक्षिकयोः
धन्यवादः
अस्तु इदानीम् ओकारान्तस्त्रीलिङ्गं ऋकारान्त वद्वाः मातुः स्वसुः शीलाभगिनी भवती पठतु
उकारान्तस्त्रीलिङ्गवधुशब्दः वद्वा वद्भोः वधूनां ककारान्तस्त्रीलिङ्ग मातृशब्द मातुः मात्रोः मातॄणां ऋकारान्तस्त्रीलिङ्गस्वशब्दः स्वस्सुः स्वस्सुः स्वसोः स्वसॄणां
स्वसॄणाम् अस्तु अनन्तरं फलस्य
फलस्य अकारान्त नपुंसकलिङ्ग फलशब्दः फलस्य फलयोः फलानां इकारान्त नपुंसकलिङ्ग दधिशब्दः दध्नः दध्नोः दध्नाम् उकारान्त नपुंसकलिङ्ग मधुशब्दः मधुनः मधुनोः मधुना मधूनाम्
समीचीनम् अस्तु अत्र षष्ठीभक्तिसम्बन्धः भवति अत्र वयं के के शब्दान् पठितवन्तः तत्र षष्ठी विभक्तेः उपयोगं भवति इति.
अकारान्तपुल्लिङ्गम्
न न नाट् लैक् दट् एकनिमिषः अत्र किं भवति वयं दक्षिणतः वामतः पुरितः पुरतः पृष्ठतः उपरि पठितवन्तः किल. तत्र षष्टिविभक्तेः उपयोगं भवति.
I'm not sure I understand the question, Bhagini.
I think I do now. I think you're asking what are all the scenarios or places where we use Shashti Vibhakti? Okay.
Okay.
I have to crack open the Vibhakti book.
उपरि उपरि
भाववाचकपदं
न न न न आमाम् एकांश उपरि तत्र सम्बन्धवाचकः भाववाचकपदानां तावदेव किल.
Bhagini, can you please remind me what Bhava Vachaka Padanam means?
I was going to ask the same.
Bhava Vachaka Padanam itikte tatra gitasya shavanena aham santushtah pustakasya adhyayanena jnanam vartate ramasya agamane vilambah nasti. तत्र कर्तृपदस्य षष्ठी भवति.
ओके ओके थैंक यू भगिनि.
अस्तु प्रश्नाः सन्ति वा? अस्तु इदानीम् अभ्यासं कुर्मः. अत्र कृष्णस्य कोष्टके विद्यमानानां शब्दानां साहाय्येन वाक्यानि लिखत. अस्तु अत्र कृष्णः शङ्खः पाञ्चजन्यः कृष्णस्य शङ्खः पाञ्चजन्यः अस्तु वृन्दा भगिनी भवती करोतु अभ्यासं करोतु
युधिष्ठिरः शङ्खः अनन्तविजयः युधिष्ठिरस्य शङ्खः अनन्तविजयः Should I continue, Bhagini? नारदः वीणा महति नारदस्य वीणा महति विष्णुः गदा कौमोदकी विष्णोः गदा कौमोदकी
आम् अस्तु इदानीं चित्रा भगिनी
शम्भुः धनुः पिनाकः शम्भोः धनुः पिनाकः सरस्वती वाहनं हंसः सरस्वत्याः वाहनं हंसः
हंसः समीचीनम् अस्तु अत्र
भगिनी वाट् इस् पिनाकः
नेम् आफ़् इस्
अस्तु
Is that the one that Rama breaks? Gets married to Sita?
Yes. Yes. Tanuhu.
Tanush.
Asta. Asta. Uchaihi patata. Neena Bhagini Bhavati patatu.
मुनेः नाम व्यासः पाण्डवानां ज्येष्ठः युधिष्ठिरः कवीनां कृतयः काव्यानि अभिमन्योः पिता अर्जुनः
आम् अस्तु अत्र मुनेः नाम व्यासः अत्र षष्ठी कुत्र अस्ति
मुनेः मुनिनामशब्दस्य षष्ठी विभक्तिरूपं
पाण्डवानां तस्य प्रथमविभक्तिः किं भवति
पाण्डवा पाण्डवाः
कवीनाम् इति
कविः प्रथमा विभक्ति
एकवचनं अभिमन्योः
अभिमन्युः इति उकारान्त पुल्लिङ्ग एकवचनशब्दं
समीचीनम् अस्तु इदानीं प्रिया भगिनी भवती पठतु सेनयोः
सेनयोः उभयोः मध्ये रथं स्थापय गीताध्यायानं यायानां प्रथमः अर्जुन विषादयोगः पितुः आज्ञा पालनीया
पितुः आज्ञा पालनीया
पालनीया I don't know what that means for me भ्रात्रो
You have to obey like that It should be done
okay ओके भ्रात्रो प्रिया भगिनी सुभद्रा साधूनां परित्राणां करणीयं वारिणः संरक्षणं कर्तव्यम्
वारिणः इत्युक्ते
स्त्री
I don't know the name.
Forest, is it?
Ah, Tadyavaiti aham chintayami.
Varinaha is forest, Bhagini, or trees?
What is Paritranam?
किं भगिनि
परित्राणं साधूनां परित्राणं करणीयं वाट् इस् परित्राणं
परित्राणम् इत्युक्ते रेफ्यूज् इति चिन्तयामि सेल्फ् डिफेन्स्
ओके
Bhagini, what did we say Vari Naha mean?
Tree.
Oh.
Bhagini, itra sadhu na is it sadhus or good people?
Kimartam?
Sadhu iti
good people.
But if it is the sadhus, then paritranam will be deliverance, right? Paritranaya sadhunam. How it comes in.
Satyam bhagin. Asta. अहं तृतीयम् अभ्यासं गृहपाठरूपेण ददामि अत्र एतदपि गृहपाठं भवति वा अथवा इदानीं कुर्मः वा
गृहपाठं भगिनि
अस्तु द्वितीयम् अपि तृतीय अभ्यासः गृहपाठरूपेण भवति अस्तु अवधेयमपि पठन्तु तत्र अवधेयमस्ति किल
अवधेयम् ओके
अस्तु एकनिमिषः अत्र
भगिनि केन् वि गो ओवर् वन्स् द अभ्यास हौ टु डु इट् नम्बर् त्री वट् डु हेव् टु डु
वदामि भगिनि अत्र भगवान् सेनानीनां स्कन्दः तत्र पुस्तके गीतापुस्तके 10th चाप्टर् अण्ड् 25th श्लोकं देर् यु वेन् यु सी भृगुः यु हेव् टु फैण्ड् वट् वर्ड् मेक्स् द तत्र महर् अण्ड् इट् विल् बीन् षष्टि विल् गिव् यु द फस्ट् वन् अण्ड् द सेकेण्ड् वन् इट् विल् बी महर्षीणां भृगुः स्थावराणां हिमालयः
Yeah, I'm having a lot of difficulty with these things. Somehow, I mean, my family is not into Gita, as in like we've never really read it or, you know, it's not that prominent at all. I don't know if it's a South Indian thing or specifically my family.
Even I have not read.
Only exposure to Gita is like, you know, in South India, there's actually this concept of Puranam. What that means is like all the scholars and everybody, like they come to the local temples and they will give like pravachan. Yeah, and then like when I was a kid, I used to go with my grandmother. But other than that, I have no Gita exposure. So I'm having a lot of difficulty to actually even relate to these exercises actually.
I just found it. Sthavaranam. Sthavaranam. The second one. I found the answer.
So Chitra Palmi, you were saying you have the same experience, right?
Yeah, I have the same because in my house also we didn't even have a copy of Gita.
It's only much later when I became a dharmadhikari in ISKCON that they gave me the book and I never bothered to even open it and see.
Well, same here. I actually have a book. I just don't know where it is. So I'm going to have to hunt it down and sort of do these exercises. Somehow we are not
exposed
to Gita in the same way.
It's also online,
Bhagini.
It's also
online.
Meena Bhagini, I'm also from the south, except my father used to read it every single day before going to work.
Okay, good.
Principals helped him with dealing with stress at work.
Astu. Atra dashamah atra asti tasya tasya chala
shraddha.
Shraddha.
And even these chapter headings are not making any, I'm not able to understand them at all.
Astu. Atra vadami tatra if you have the Gita book, then if you go to chapter 7, shloka number 21, it says,
God.
Tasya tasya chalam shaddam tameva vidha tamyaham. So,
are all shlokas.
So tasya tasya to him, and you have to find where it is. achalam steady. Shraddham, faith. So,
okay.
Unwavering faith.
Okay.
Is what it means.
I see.
Here, aham sarvasya prabhavah, that's easy. I'm everybody's creator.
I see. Okay.
That, if you want, you have to find where that shloka number is.
This is homework within homework.
Bhagini, can you please repeat what did you just say for tasya tasya chala
shraddham? Yeah. Tasya tasya chalam shraddham tameva vidya vidyadhamyaham.
So tasya tasya achalam shraddham. So tasya tasya itikte to him achalam steady shraddham faith.
Some unwavering faith.
But Bhagini, how will we recognize that this is from chapter 7 shloka?
It's not given. You'll have to find it. Okay. But the full shloka is, I study the faith of such a devotee in that form.
Bhagini, but why are they choosing those as the title for these lessons?
I don't know, Bhagini.
Which I'm trying to find a link between the title and the content from the chapter.
Astu. Tatra etat vayam patitavantah haratam atra etasya etasyah iranim sarvanam shabdanam abhyasam kurmah shila bhagini bhavati patatu etasya nama
etasya nama vishnuho etasyah nama lakshmihi etasya nama mahabharatam
samichina. अस्तु एतत् सम्भाषणं वयं पठामः. कः माता भवति, कः पुत्रः भवति, कः रक्षकः भवति?
अहं माता भवति
भवामि. राधा भगिनी, अस्तु. चित्रा भगिनी, कः कः भवति रक्षकः? राधा भगिनी माता भवति, चित्रा भगिनी पुत्रः भवति, नीना भगिनी रक्षकः भवति. अस्तु. का चेत् महाभारतप्रदर्शिनी, माता तां दर्शयन्ति, पुत्रं विवृणोति.
एषा महाभारतप्रदर्शिनी, एतस्याः दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते.
एतस्य नाम किम्?
एतस्य नाम धृतराष्ट्रः.
एतस्याः नाम किम्?
एतस्याः नाम गान्धारी. एतयोः पुत्राः एव कौरवाः.
एतेषां पाण्डवानां च कः सम्बन्धः?
पाण्डवाः एतेषां दायादाः.
तेषाम् एतेषां मध्ये किं प्रवृत्तम्?
महत् युद्धं प्रवृत्तं, तदेव महाभारतयुद्धं. तत्र कृष्णः पाण्डवपक्षे आसीत्.
कृष्णः मम प्रियदेवः, सः तवापि प्रियः किम्? What is tavapi? I've never seen this word.
Yours also.
Oh, tava api. Okay.
Are this page missing? Okay. Mata. Asmakam deshe krishnaha sarvesham priyaha eva. Aham tasya bhakta.
Priyaha eva.
Aham tasya bhakta.
Boho. कृपया शनैः वदतु, युवयोः सम्भाषणेन अन्येषां विघ्नः भवेत्.
तथैव भवतु, वत्सः आवयोः विलम्बं जातः. चलतु गच्छाव.
अस्तु. अतः प्रदर्शिनी इत्युक्ते अत्र एतस्याः दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते. अत्र माता पुत्रं दर्शयन्ति, तं विवृणोति. सा वदति एतत् महाभारतप्रदर्शिनी. एतत् दृष्ट्वा वयं महाभारतं सम्यक् अवगन्तुं ज्ञातुं शक्नुमः इति. पुत्रः वदति एतस्य नाम किम्? माता वदति एतस्य नाम धृतराष्ट्रः. पुत्रः पुनः वदति एतस्याः नाम किम्? एतस्याः नाम गान्धारी. एतयोः द्विवचनं, पुत्राः एव कौरवाः. एतेषां पाण्डवानां च कः सम्बन्धः? अत्र सावति
भगिनी, एतयोः पुत्राः एव कौरवाः. सो एतयोः इस् द्विवचनं, राइट? वाय द्विवचनं इस् यूस्ड् हियर्?
दैट कपल.
सो धन्यवाद.
आम्. अनन्तरं पाण्डवानाम् एतेषां दायादा अत्र दायादाः इति
It's used, even in now also,
yeah.
At least in Telugu language it is. Basically relatives and cousins, like far off relatives.
Even in Tamil we use it. Only thing we say Dayadi.
Oh, okay.
So it says here that they are relatives, is it?
Yeah.
Correct.
Okay.
Bhagini, are you able to hear us? I feel there's always a gap in the middle. Pardon me, Bhagini. Okay.
Maybe there's a lag.
Yeah.
because I reply after I hear, and then you hear after I reply, right? So.
Okay.
अस्तु तेषाम् एतेषां मध्ये किं प्रवृत्तम् पाण्डवानां कौरवानां मध्ये किं प्रवृत्तम् युद्धं प्रवृत्तं तदेव महाभारतयुद्धम् पाण्डवपक्षे कृष्णः आसीत् कृष्णः मम प्रियः देवः सः तवापि प्रियः किम् अस्माकं देशे कृष्णः सर्वेषां प्रियः एव अहं तस्य भक्ता भोः कृपया शनैः वदतु युवयोः अत्र द्विवचनं सम्भाषणेन अन्येषां विघ्नः भवेत् तथैव भवतु वत्स सम्बोधनं भवति आवयोः विलम्बः जातः चलतु गच्छाव
All of that is also द्वितीय विभक्ति गच्छाव एंड आवयोः
भगिनी
व्हाट इज
द मीनिंग ऑफ आवयोः वी टू
No, wait, is that, but it's not fitting in the sentence though. Avayoho vilambha jataha. Let's go, is it?
Let's go, both of us go, okay, no?
Vilambha yeah, let's vilambha both of us.
What is vilambha?
Delay, it's getting late.
So, Bhagini, is Avayoho both of us? Kadambri Bhagini?
Yes.
Okay.
सप्तमी इज आल्सो आवयोः फॉर टू
व्हाट डस जातः मीन हियर भगिनी सो इज इट देयर इज नो क्रियापदम हियर राइट
इट्स लाइक दैट You can think of it as a kriya pada.
Time is going away, or time is slipping.
It's like sa pratyaha, arabdaha.
Yeah,
sa pratyaha,
yeah.
Like arabdaha.
Any question? Gachava is also a pratyaha, is it, Padme?
No. That is Madhyama Purusha.
Oh.
द्विवचनं मध्यमपुरुषः
अस्तु
तदेव महाभारतयुद्धं तदेव वाट् इस् दट् फार्म् भगिनि
तत् एव
ओ ओके
So, Bhagini, what is Gachhava here? It's not a Kriya Padam here.
It is
Kriya Padam, but Madhyam Pradam.
It's a Kriya Padam.
Madhyam Purusha. Okay.
Hedat Uttama Purusha Dvivachanam.
It is Uttama Purusha, thank you. I was about to say that because Madhyam Purusha is Pathati, Pathataha, Pathata. So, like that.
गच्छानि गच्छाव गच्छाम
Is it me also, or me, Bhagini? Gachami, Gachavaha, Gachamaha, right?
Yes, Gachami, I said.
Yeah, okay.
This is also, Bhagini, what Shabdam is Avayoho? I'm not able to find it.
It's on the table. It's on the Asmat table.
Asmat. Asmat Shabda. Okay, thank you.
Yeah.
Avar. Avar.
Okay. Yeah, now I find it. Yeah.
अस्तु अन्ये प्रश्नाः सन्ति वा अत्र अस्तु नीना भगिनी भवतु भवती एतत् पठतु
ओके एतत् पुल्लिङ्गे नपुंसकलिङ्गे च स्त्रीलिङ्गे एकवचनं द्विवचनं बहुवचनं एतस्य एतयोः एतेषाम् एतस्याः एतयोः एतासां तत् पुल्लिङ्गे नपुंसकलिङ्गे च स्त्रीलिङ्गे तस्य तयोः तेषां तस्याः तयोः तासाम् अस्मत् शब्दः त्रिषु लिङ्गेषु मम आवयोः अस्माकं युष्मत् शब्दः त्रिषु लिङ्गेषु तव युवयोः युष्माकम्
समीचीनम् अत्र पुल्लिङ्गे च नपुंसकलिङ्गे एतस्य एतयोः एतेषामेव भवति अस्मत् त्रिषु लिङ्गेषु तत्र पुल्लिङ्गः भवति स्त्रीलिङ्गः भवति नपुंसकलिङ्गः भवति मम एव भवति
अन्तरं न भवति
भेदः न भवति अस्तु प्रथमम् अभ्यासं कुर्मः वसुदेवः देवकी वसुदेवस्य पत्नी देवकी देवक्याः पतिः वसुदेवः अस्तु बलरामः दुर्योधनः शीला भगिनी
बलरामस्य बलरामस्य शिष्यः दुर्योधनः दुर्योधनस्य गुरुः बलरामः
अस्तु इदानीं राधा भगिनी हरिः लक्ष्मीः
पतिः पत्नी हरिः पत्नी लक्ष्मी
हरेः
पत्नी लक्ष्मी लक्ष्म्या पतिः
लक्ष्म्याः पतिः
लक्ष्म्याः पतिः हरिः
इदानीं जमदग्निः रेणुका प्रिया भगिनी अस्तु चित्रा भगिनी
जमदग्न्याः पत्नी रेणुका रेणुकायाः
जमदग्निः पदस्य षष्ठी किं
जमदग्न्याः
जमदग्ने
जमदग्ने पत्नी रेणुका
रेणुकायाः
हा जमदग्नेः पत्नी रेणुका रेणुकायाः पतिः जमदग्नि
जमदग्निः इकारान्त और पुल्लिङ्ग शब्द इस्
हरि
अभिमन्युः सुभद्रा पुत्रः माता
भगिनी सारि ऐ कुडन्ट् अन्म्यूट्
इदानीं वदति वा अभिमन्युः सुभद्रा
भगिनी हौ डु वि रैट् लक्ष्म्याः ल हाफ् च हाफ् म एण्ड् देन् याः
नो नो हाफ् य हाफ् क्ष हाफ् य एण्ड् फुल् म लक्ष्म्याः
लक्ष्म्याः
लक्ष्म्याः हौ डु वि रैट् देट्
लक्ष्मी हाँ यू आर राइट
सॉरी आई एम मिस्टेकन
Lakshmya. Complete.
Okay. That's what I thought. Okay.
Okay.
Shall I say the next one, Bhagini?
Abhimanyuh Subhati.
Abhimanyuh Mata Subhatra. Subhatrayah Putra. Putraha Abhimanyuh.
Abhimanyuh. Samichinam. Idanim. Etat Abhyasam Abhi Kurmaha. भारतस्य राजधानी देहली. वृन्दा भगिनी करोति वा?
हस्तिनापुरस्य राजा धृतराष्ट्रः.
रवेः
पुत्रः कर्णः. वेणोः ध्वनिः मधुरः.
समीचीनम्. इदानीं
ऐ विल् ट्रै भगिनि. ऐ हेव् ओन्ली बीन् रीडिङ्ग् टुडे.
अस्तु भगिनि.
मुनिः. मुनेः मनः प्रशान्तं भवति. लतायाः छाया शीतला भवति. गुरो अनु अर्जुनः गुरोः प्रियः.
समीचीनम्. इदानीं शीला भगिनी.
मनस्तस्तु परा बुद्धि यो भगिनी. पुलिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग?
पुलिङ्गः.
पुलिङ्ग. बुद्धेः परतस्तु सः. मातायाः स्नेहः. ओ नो नाट् मातायाः मातुः. मातुः स्नेहः अतुलः. वस्तु विल् बि विच् वन् भगिनी? वस्तु इस् विच् नपुंसकलिङ्ग. वस्तुनः मूल्यम् अधिकम्.
समीचीनम्.
How do we distinguish bhagini this how do we say napunsakalinga? Because we are doing napunsakalinga.
No, this is just something you'll have to you know memorize basically is what it is. Bhagini, I didn't understand the sentence of sorry, I didn't understand the meaning of number 7. Manamastu para buddhihi yo buddhoh paratastu.
Yeah,
paratastu saha.
What does it mean? If you know, please let us know. Or maybe next class.
Yeah, next class.
Okay. Next class, we'll do.
Anya prashnaha santiva etat aham abhyasam grahapata rupena dadami va nava?
Dadatu.
Asta.
Rupaya.
Dadatu.
Dada.
Asta. गृहपाठरूपेण अत्र द्वितीयः तृतीयः अभ्यासः अपि अत्र तृतीयः अभ्यासः. अस्तु.
ओके. 26.
अन्य प्रश्नाः सन्ति वा? अस्तु, अत्र स्थगयामः.
सर्वे भवन्तु सुखिनः. सर्वे सन्तु निरामयाः. सर्वे भद्राणि पश्यन्तु. मा कश्चित् दुःखभाग् भवेत्. ॐ सर्वे भवन्तु सुखिनः. सर्वे सन्तु निरामयाः.
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ शान्तिः शान्तिः शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः भगिनी।